नमस्सर्वेभ्यः। अद्य कोविदवर्गस्य दशमः पाठः, एप्रिल् मासस्य 20 दिनाङ्कः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। काव्यभागे अलङ्काराणाम् अध्ययनम् अस्माभिः समाप्तम्, अर्थात् ये अलङ्काराः कोविदपाठ्यक्रमे निर्दिष्टाः ते अलङ्काराः अस्माभिः ज्ञाताः। अलङ्कारः काव्यस्य आभूषणम् इव भवति, तत्र द्वेधा विभागः दृश्यते, शब्दालङ्कारः अर्थालङ्कारः इति। यत्र शब्दानां सौन्दर्यं वर्धते तत्र शब्दालङ्कारः इति कथ्यते, यत्र तु अर्थस्य प्राधान्यम्, अर्थस्य रमणीयरीत्या अभिव्यक्तिः भवति, सः अर्थालङ्कारः इति। शब्दालङ्कारे अनुप्रासः, यमकः इति अलङ्कारद्वयम् अस्माभिः दृष्टम्। अनुप्रासे पुनः छेकानुप्रासः, वृत्त्यनुप्रासः इति प्रभेदद्वयं दृष्टवन्तः। छेकानुप्रासे एकस्य व्यञ्जनसमुदायस्य सकृत् आवृत्तिः भवति, यथा चिन्तयामि हरिमेव सन्ततम्। अत्र नकारतकारयोः एकवारम् आवृत्तिः अस्ति, अतः छेकानुप्रासः इति कथ्यते। वृत्त्यनुप्रासे एकस्य व्यञ्जनस्य अथवा व्यञ्जनसमुदायस्य बहुवारम् आवृत्तिः दृश्यते। नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम्, अत्र नकारतकारयोः संयोगः बहुधा आवृत्तः, अपि च ककारः क इति ककारस्यापि बहुधा आवृत्तिः अस्ति, अतः अत्र वृत्त्यनुप्रासः इति कथ्यते। एवम् अनुप्रासस्य प्रभेदद्वयम् अधीतम्। अन्ये अपि सन्ति अनुप्रासाः, लाटानुप्रासः, श्रुत्यनुप्रासः इत्यादि, तद्विषये अग्रे कदाचित् पश्यामः। यमकः इति द्वितीयः शब्दालङ्कारः, भिन्नार्थकानां वर्णसमूहानाम् आवृत्तिः यमकम्, अर्थात् पदस्य एव आवृत्तिः इति भाति, किन्तु तत्र अर्थः भिद्यते। अगजाननपद्मार्कं गजाननमहर्निशम्, उभयत्रापि गजानन गजानन इति श्रूयते, किन्तु एकत्र अगजा आनन, अगजा पार्वती, तस्याः आननं मुखम् इत्यर्थः। अन्यत्र तु गजाननः, गजस्य आननम् इव आननं यस्य, गणेशः इत्यर्थः। एवं पदस्य आवृत्तिः श्रूयते, किन्तु तत्र अर्थभेदः भवति, तादृशस्य यमकालङ्कारः इत्यर्थः। अर्थालङ्कारेषु पञ्च अलङ्काराः अस्माभिः दृष्टाः। प्रायेण बहूनाम् अलङ्काराणां मूलभूतः अलङ्कारः उपमालङ्कारः। उपमा यत्र सादृश्यलक्ष्मीरुल्लसतिद्वयोः इति लक्षणम्, रमणीयतया सादृश्यस्य वर्णनम् उपमा इति कथ्यते। अकर्दममिदं तीर्थं सन्मनुष्य मनोयथा इति वाल्मीकिरामायणस्य एकम् उदाहरणम्। उपमायां चत्वारि अङ्गानि भवन्ति, यः वर्ण्यते सः उपमेयः, यथा अत्र तीर्थं तमसा नद्याः वर्णनं करोति वाल्मीकिः। येन सह तुलना क्रियते उपमेयस्य, तत् उपमानम् इति कथ्यते। अत्र सन्मनुष्यमनः इति उपमानं भवति। उपमेय उपमानयोः मध्ये कश्चित् साधारणधर्मः, समानगुणः भवति, येन वयं तत्र उपमां कुर्मः, सः साधारणधर्मः। अत्र अकर्दमं, निष्कल्मषत्वम् एव साधारणधर्मः। उपमावाचकः कश्चित् शब्दः अपि भवति, अत्र यथा इत्यस्ति।
एवं चत्वारि अपि अंगानि यत्र भवन्ति सा पूर्णोपमा इति कथ्यते. कस्यचित् अंगस्य कथनं यत्र नास्ति तत्र लुप्तोपमा इत्युच्यते. ततः रूपकालङ्कारं ज्ञातवन्तः. उपमान उपमेययोः अभेदः रूपकम् इत्युच्यते. विद्याधनं सर्वधनप्रधानम्. अत्र विद्या उपमेयः, धनम् उपमानं, तयोः मध्ये भेदः नास्ति. विद्या एव धनम् इति वर्णनं क्रियते. तत्र रूपकालङ्कारः इति कथ्यते. अतिशयोक्तिः इति अपरः अलङ्कारः. यत्र उपमेयस्य उपादानं विना उपमानरूपेण एव वर्णनं क्रियते. अहो सिंहः आगच्छति इति कञ्चित् वीरं पुरुषं दृष्ट्वा वदामः चेत् तत्र वस्तुतः सः पुरुषः उपमेयः, किन्तु वाक्ये तस्य उपादानं नास्ति. साक्षात् सिंहः इति उपमानस्यैव वर्णनं क्रियते. तत्र अतिशयोक्तिः अलङ्कारः इति कथ्यते. अग्रिमः अलङ्कारः आसीत् श्लेषः इति. नानार्थसंश्रयः श्लेषः, नानार्थकपदविन्यासः इति श्लेषस्य लक्षणं भवति. श्लेषः द्विविधः, अभङ्गश्लेषः सभङ्गश्लेषः इति. एकस्यैव पदस्य अर्थद्वयम् अथवा ततोप्यधिकम् अर्थाः भवन्ति चेत् सः अभङ्गश्लेषः इति कथ्यते. यथा कादम्बरीरसज्ञानाम् आहारोऽपि न रोचते इत्यत्र कादम्बरीपदस्य कादम्बरीकाव्यम् इत्यर्थः, एवमेव मद्यम् इत्यपि अर्थः भवति. कदाचित्तु पदच्छेदः भिद्यते, तेन कारणेन अर्थद्वयं स्फुरति. तादृशः श्लेषः सभङ्गश्लेषः इति कथ्यते. यथा सर्वदो माधवः पायात्, तत्र सर्वदः माधवः पायात् इति छेदं कुर्मः चेत् कृष्णस्य स्तुतिः भवति. सर्वदा उमाधवः पायात् इति सन्धिविच्छेदं कुर्मः चेत् ईश्वरस्य स्तुतिः भवति. अयं सभङ्गश्लेषः इति कथ्यते. अर्थान्तरन्यासः इति अपरः अलङ्कारः. यत्र सामान्यविशेषयोः उपादानं भवति. कश्चित् सामान्यनियमः अथवा सामान्यनीतिः, तस्य एकं विशिष्टम् उदाहरणम् अपि दीयते. तादृशः अलङ्कारः अर्थान्तरन्यासः. हनूमान् अब्धिमतरत् दुष्करं किं महात्मनाम्. तत्र महात्मनां किं दुष्करम्, किमपि दुष्करं नास्ति इति सामान्यवचनं. तस्य समर्थनार्थं हनूमान् अब्धिमतरत्. हनूमान् समुद्रमेव लङ्घितवान्, एवं सति महात्मनां दुष्करं किम् इति सामान्यविशेषयोः उपादानमस्ति. सः अर्थान्तरन्यासालङ्कारः. एवञ्च सप्त अलङ्काराः अस्माभिः ज्ञाताः. अनुप्रासः, यमकः, उपमा, रूपकम्, अतिशयोक्तिः, श्लेषः, अर्थान्तरन्यासः इति. गृहकार्ये अर्थान्तरन्यासस्य कानिचन उदाहरणानि दत्तानि. तत्र सामान्यं किं, विशेषः कः इति वक्तव्यम् आसीत्. यथा अहो दुर्जनसंसर्गात् मानहानिः पदे पदे, पावको लोहसङ्गेन मुद्गरैरभिताड्यते इति एकं सुभाषितम्. अत्र सामान्यं किं, विशेषः कः इति वक्तव्यम्. अविनाश वैद्य.
नमस्ते भगिनि.
नमस्ते.
अहो दुर्जन संसर्गात मानहानि पदे पदे, दिस् इस् अ जनरल स्टेट्मेंट, सामान्य स्टेट्मेंट. पावको लोह संगेन मुद्गरै र भिताड्यते, अभिताड्यते, दिस् इस् अ स्पेसिफिक सेंटेंस.
करेक्ट. कहा था? वक्ष्यामि, अर्थं वक्ष्यामि. अहो इति आश्चर्यं. दुर्जनसंसर्गात्, दुर्जनानां सङ्गात्, सहवासात् पदे पदे मानहानिः, सर्वत्र अस्माकं मानहानिः, तिरस्कारः, पराभवः भवति. So the association with the evil leads to humiliation or failure at every step. Iti samanyam ekam vakyam. Tasya kim udaharanam? Pavakaha. Pavakaha agnihi. Agnihi tu atyantam shreshtaha shuddhaha. Kinto loha sangena samanya lohaihi. Lohaha metal. So tena saha yada sahavasaha bhavati tada mudgaraihi abhitadyate. Mudgaraha ityukte hammer ityarthaha. Yena vayam lohasya tadanam kurmaha. So you take a metal, you heat the metal and you heat the metal to bring it to a shape. But because it is associated with that metal, so fire also gets the beating. So durjana samsargat pade pade kleshaha anubhuyate. Yatha agnihi tasya kopi doshaha nasti chedapi lohasya sahavasa karanena mudgaraihi abhitadyate. Iti ekam udaharanam. Evancha aho durjana samsargat manahanih pade pade iti samanya nitihi pavako loha sangena mudgarai rabhitadyate iti tasya ekam udaharanam bhavati atra arthantaranyasaha alankaraha. Should it not be the other way iti prachyate kaha arthaha other way ityukte? Sudha Bhagini, Prashnasya kaha ashayaha?
My question is, pavako loha sangena looks like a common example which people will identify. So shouldn't that be a samanya vakya to explain?
So samanya is where you are not specifying any example. You are just making a general statement. What is a general statement? So with the evil. Association of evil leads to humiliation. That's a general thing. So here an example for an evil person is say loha. Whereas pavaka is a sajjana who is being associated with the turjana. And what is the problem the pavaka is facing? It is being, it is suffering the beatings from the hammer.
Oh, I thought they are saying just like the pavaka is getting beated, similarly, in Durjana Samsargat, you will have Manahani. I thought it was the other way.
No, see, that is all. In Atishayokti, you can either one will convey the meaning. Okay, that is very clear. Always, whether we say, say, Nahi Suptasya Simhasya Pravishanti Mukhe Mrgaha, or Udyamena Hi Siddhyanti Karyanina Manorathaihi, people will understand the same Niti from both. From both we are getting the same thing. In one case we are stating the niti itself. In another case we are stating it through a particular case, a particular example. So that particular example is vishesha, whereas you are just stating a moral. Directly stating the moral is the samanya. Giving an example
so
for the moral
is always samanya.
Yes.
So moral is always samanya.
Yes. The example or an illustration of the moral is the vishesha. Okay. So at the samanya vakyam, vishesha vakyam. Okay. Agrimam udaharanam asti. Udaye savita raktaha raktashchastamaye tatha sampatta ucha vipatta ucha mahatam ekarupata. Okay. So Rohan Mahodaya gives another clue saying the proper noun and a common noun. Okay, so when you are stating a samanya niti, it is through the common nouns like say durjanaha, manahanihi ityadi. Whereas pavaka, loha, when you are taking specific this ones, it is called a vishesha vakya. Okay, that's one way of looking at it. So agrimam udaharanam udaye savita raktaha raktashchastamaye tatha sampatta ucha vipatta ucha mahatam ekarupata. Sharanya bhagini. You have to unmute yourself. Sharanya. Please click on the microphone to unmute yourself. न श्रूयते किञ्चित् उच्चैः.
सम्पत्तौ च विपत्तौ च महताम् एकरूपता तद् सामान्यनीतिः. उदये सरितौ रक्तश्च अस्तमये तथा तद् विशेषवाक्यम्.
सत्यम्. सम्पत्तौ च विपत्तौ च महताम् एकरूपता इति सामान्यनीतिः. तस्य विशेषवाक्यम् उदाहरणं भवति उदये सविता रक्तः रक्तश्चास्तमये तथा इति. कः अर्थः? महताम् ये महान्तः जनाः तेषां सम्पत्तौ विपत्तौ च. यदा बहु समृद्धिः लभ्यते अथवा बह्व्यः आपदः अनुभूयन्ते उभयत्रापि एकरूपता समानदृष्टिः भवति. सुखं भवति चेत् अत्यन्तं सन्तुष्टाः न, दुःखं भवति चेत् अत्यन्तं खिन्नाः इति न. सम्पत्तौ विपत्तौ च महताम् एकरूपता इति सामान्यम्. तस्य किम् उदाहरणम्? सविता सूर्यः. सूर्यः उदये रक्तः तथा अस्तमये रक्तः. यदा प्रातःकाले उदेति, उदयः इति सम्पत्तेः चिह्नम्. सो वेन् इट् इस् रैसिङ्ग् द सन् इस् रेड् एण्ड् इट् इस् ईक्वलि रेड् वेन् इट् इस् सेटिङ्ग्. अतः वेन् वेदर् देर् आर् रिचस् आर् प्राब्लम्स् ग्रेट् पीपल् आर् द सेम्. एवं सम्पत्तौ च विपत्तौ च महतामेकरूपता इति सामान्यम्. उदये सविता रक्तः रक्तश्चास्तमये तथा इति विशेषः. उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये पयःपानं भुजङ्गानां केवलं विषवर्धनम्. रोहन् महोदय.
नमस्ते भगिनि. उपदेशः हि मूर्खाणां प्रकोपाय न शान्तये. दिस् इस् कामन्, सामान्य नीतिः. एण्ड् इट् इस् एक्स्प्लेन्ड् अबौट् मूर्ख पीपल्. सो सिमिलर्ली पयःपानं भुजङ्गानां केवलं विषवर्धनं. भुजङ्ग अगेन् कम्पेर्ड् टु द पीपल्. सो देट् इस् विशेष.
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये. ये अत्यन्तं मूर्खाः तेभ्यः उत्तमवचनानि उच्यन्ते चेदपि ते न अवगच्छन्ति. तेषां कोपः एव वर्धते, न तु शान्तिः भवति इति सामान्यनीतिः. किम् उदाहरणं? भुजङ्गानां सर्पाणां पयःपानं नाम क्षीरपानम्. वयं सर्पस्य क्षीरं दद्मः. क्षीरं तु उत्तमं वस्तु, किन्तु यदा सर्पाय क्षीरं दीयते तदा तेन विषमेव वर्धते, न तु सर्पस्य शमनं भवति. यथा उत्तम उपदेशेन मूर्खाणां शमनं न भवति अपि तु कोपः वर्धते, एवं क्षीरपानेन सर्पाणां विषमेव वर्धते, न तु तेषां शमनं भवति इति विशेषवाक्यम्. अत्र कश्चित् प्रश्नः. यथा तथा इति शब्दाः क्वचित् स्पष्टाः क्वचित् अध्याहृताः इति वक्तुं शक्यते वा? अर्थान्तरन्यासे यथा तथा इत्यादि न भवत्येव. इत्युक्ते तत्र उपमावाचकः शब्दः अर्थान्तरन्यासे न भवति. तत्र उदये सविता रक्तः रक्तश्चास्तमये तथा इति उदये रक्तः तथा अस्तमये रक्तः. अस्तमये अपि इत्यर्थे तथा शब्दस्य प्रयोगः. तत्र सामान्यवाक्यस्य विशेषवाक्यस्य च सादृश्यबोधकं पदं किमपि न भवति. तदेव तत्र तथा इति उपमेय उपमानयोः अथवा सामान्यविशेषवाक्ययोः दृष्टान्तं बोधयितुं न. सो द वर्ड् तथा देर् वास् नाट् टु इल्लस्ट्रेट् सिमिलारिटि बिट्वीन् द सामान्य अण्ड् विशेष. It was only udaye astamaye tatha. Okay, so in arthantaranyasa we usually do not have the words saying similarly or likewise. It just makes two statements where the similarity is obvious. It is implied, it is not told. Khalah karoti durvrittam nunam phalati sadhushu dashanano harat sitam bandhanantu mahodadhehe. Rao Mohanaya.
Yeah. Shruyate va?
Shruyate. Varat.
Khalah karoti durvrittam nunam phalati sadhushu dashanano harat sitam bandhanantu महाजेहे अलवर्षम नून फलती साधु सामक्य दशानो अहरसीता महोदे नीतिवाक्य
विशेष
विशेषः
इति उदाहरणम् अथवा विशेषः सामान्यः विशेषः इत्येव अर्थान्तरन्यासे परिभाषा खलः करोति दुर्वृत्तं दुष्टः किमपि दुष्टकार्यं करोति तस्य फलं स एव अनुभवति इति न किन्तु अन्ये साधवः अपि तस्य दुष्कर्मणः फलम् अनुभवन्ति इति सामान्य वाक्यमेकम् अस्ति तत्र किम् उदाहरणं दीयते दशाननः सीताम् अहरत् रावणः सीताम् अपहृतवान् तस्य दण्डः भवेत् भवति तद् भिन्नं महोदधेः तु बन्धनं किन्तु तेन सह समुद्रस्य बन्धनं जातं नाम सेतुबन्धनं सेतुबन्धः समुद्रस्य कृतः नीतिम् उदाहर्तुम् इट् इस् जस्ट् टेकन् एस् एन् एक्साम्पल् बिकास् आफ् द वर्ड् बन्धन महोदधेः बन्धनं समुद्रस्य बन्धनं जातं नाम सेतुबन्धः कृतः तत्र समुद्रस्य कोऽपि अपराधः नासीत् अपराधः रावणस्य तथापि सज्जनानामपि तस्य फलं फलस्य अनुभवः भवति इति सामान्यवाक्यस्य इदं विशेष उदाहरणं दीयते न भूतपूर्वं न कदापि वार्ता हेम्नः कुरङ्गो न कदापि दृष्टः तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः महालक्ष्मी
न भूतपूर्वं न कदापि वार्ता हेम्नः कुरङ्गो न कदापि दृष्टः सामान्यवाक्यं तथापि कृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः विशेषवाक्यं
कथं सामान्यविषये सामान्यं किं वाट् इस् द मोरल् आफ् दिस् श्लोक
मोरल् इस् रामा एवन् दो इस्
दट् इस् एन् एक्साम्पल् दट्स् एन् एक्साम्पल् रामा स्पेसिफिकली इस् एन् एक्साम्पल् सामान्यतः अनेन श्लोकेन किम् उच्यते
न भूतपूर्वं मीन्स् नेवर् हेपेन्ड् आर् नाट् हियर् इवन् गोल्डन् डियर् इवन् मीन्स् सीन् सो ऐ थाट् इट् इस् रामा विशेषवाक्यं
रामा द एक्साम्पल् आफ् रामा इस् विशेष वाट् डस् द श्लोका से द श्लोका सेस् न भूतपूर्वम् इट् वास् नेवर् सीन् अर्लियर् न कदापि वार्ता द न्यूस् आफ् अ गोल्डन् डीर् वास् नेवर् हर्ड् न कदापि दृष्टः अ गोल्डन् डीर् वास् नेवर् सीन् सो रामा हेड् नेवर् हर्ड् आफ् इट् हेड् नेवर् सीन् इट् इट् वास् नाट् एक्सिस्टिङ्ग् अर्लियर् तथापि तृष्णा रघुनन्दनस्य स्टिल् ही वाण्टेड् ही डिसैर्ड् द डीर् तथापि रामो लुलुभे मृगाय इत्यपि पाठान्तरमपि अस्ति But still Rama wanted the deer. So then he is giving an example. And he is saying, Vinashakale viparita buddhihi. What is the moral of the whole story of Rama? I mean, what does it signify?
Even at bad times, one will make a mistake.
At bad times, the intellect, the mind does not work properly. Vinashakale viparita buddhihi ityeva samanya nitihi. That is what the shloka says. ఇన్ జనరల్ వినాశకాలే యదా వినాశస్య కాలః కష్టకాలః సమాయాతి తదా బుద్ధిః విపరీతా భవతి యద్యపి అత్యంతం ధీమాన్ భవతి బుద్ధిమాన్ భవతి తథాపి జ్ఞాత్వా అపి అకార్యం కరోతి ఇది సామాన్య నీతి. వినాశకాలే విపరీత బుద్ధిః ఇది సామాన్య నీతి. తతః పూర్వం యదుక్తం రామస్య కథ తస్య ఉదాహరణం యథా రామః సాక్షాత్ శ్రీరామః అపి అజ్ఞాతస్య అశ్రుతస్య హేమ మృగస్య ఆనయనార్థం గతవాన్. కిం రామః న జానాతి హేమ మృగః న భవతి ఇతి సః తు జానాతి జానన్నపి సః దోషం కృతవాన్. కిమర్థం ఇతి చేత్ వినాశకాలే విపరీత బుద్ధిః బుద్ధిః సమ్యక్ కార్యం న కరోతి వినాశకాలే ఇతి. అతః అత్ర వినాశకాలే విపరీత బుద్ధిః ఇతి సామాన్యం తతః పూర్వం యదస్తి తత్ సర్వమపి విశేషః. ఏతత్ న మంతవ్యం సర్వదా హాఫ్ అండ్ హాఫ్ భవతి ఇతి న శ్లోకే పాదద్వయం సామాన్యం పాదద్వయం విశేషః ఇతి న. అర్థం అవగత్య ద్రష్టవ్యం కుత్ర సామాన్యం ఉచ్యతే కః విశేషః తస్య కిం ఉదాహరణత్వేన దీయతే ఇతి అవగత్య విభాగః కర్తవ్యః సామాన్య విశేషయో. అయం అర్థాంతరన్యాసః. అన్యః అపి కశ్చిద్ అభ్యాసః ఆసీత్ శ్లేషాలంకారస్య వివరణమితి. తత్తు వస్తుతః మయా వర్గే ఏ శ్లోకాః పాఠితాః తేషామేవ వివరణం లేఖనస్య అభ్యాసః భవతు ఇతి కారణేన దత్తం. తత్ర యది కుత్రాపి సందేహః అస్తి తర్హి గతవర్గస్య దృశ్యాంశం పశ్యంతి చేత్ జ్ఞాయేత. డస్ ఎనీబడి హ్యావ్ ఎనీ స్పెసిఫిక్ డౌట్స్ ఇన్ దట్ సిన్స్ ఐ హావ్ ఆల్రెడీ కవర్డ్ దట్ ఐఎమ్ నాట్ కవరింగ్ దట్ ఎక్సర్సైజ్ అగైన్. మయా పూర్వం ఉక్తాః ఏవ శ్లోకాః తత్ర దత్తాః తద్విషయే లిఖంతు కథం లేఖనీయం శ్లేషస్య ఇతి అభ్యాసః భవతు ఇత్యేతదర్థమేవ దత్తం. ఇదానీం అగ్రే సరామః. అత్ర కేపి ప్రశ్నాః సంతి వా అలంకారాణాం విషయే? ఎది ప్రశ్నాః సంతి తర్హి హస్తమున్నయంతు నో చేత్ అగ్రే గచ్ఛామః. అస్తు, ఇదానీం పునః కావ్యాధ్యయనం ప్రతి ఆగచ్ఛామః. అస్మాభిః దృష్టం పూర్వం కావ్యస్య కావ్యం నామ కిం, కావ్య ప్రయోజనాని కాని, కావ్య ప్రభేదాః కే ఇతి పూర్వం దృష్టవంతః. కావ్యస్య అధ్యయనం యదా క్రియతే తదా కేన క్రమేణ క్రియతే చేత్ బహు ఉపయోగాయ భవతి ఇత్యపి జ్ఞాతవంతః. తత్ర అలంకారః ఛందః ఇది అంశద్వయం ఆసీత్. తదర్థం ఆదౌ అలంకారాణాం అధ్యయనం కృతం. ఛందసాం అధ్యయనార్థం అస్మాకమేవ ఛందః ఇది పృథక్ ప్రక్రమః విద్యతే. తదాశ్రయేణ ఛందసామపి అధ్యయనం కర్తుం ప్రభవంతి. ఇదానీం అత్ర కోవిద పాఠ్యక్రమే రఘువంశస్య ద్వితీయ సర్గాత్ చితానాం శ్లోకానాం అధ్యయనం కర్తవ్యమస్తి. తదర్థం రఘువంశస్య విషయే మహాకావ్యస్య విషయే కించిదద్య జానీమః. కావ్యప్రభేదాః. కావ్యం ద్వివిధం భవతి, దృశ్యం శ్రవ్యం చేతి. తత్ర దృశ్యకావ్యే రూపకాణి ఉపరూపకాణి భవంతి, ఆల్ కైండ్స్ ఆఫ్ డ్రామాస్. శ్రవ్యకావ్యే గద్యం పద్యం చంపూః ఇతి త్రేధా భవతి. పద్యకావ్యం యదా స్వీకుర్మః తత్ర పునః మహాకావ్యం ఖండకావ్యం ముక్తకం ఇతి విభాగత్రయం భవతి. పద్యం నామ కిం? వృత్తబద్ధం, వృత్తబద్ధా రచనా పద్యం ఇతి కథ్యతే. యత్ర వృత్తస్య నియమః భవతి. వృత్తం ఇత్యుక్తే ఛందః ఇత్యేవ. కీదృశాః వర్ణాః భవేయుః? లఘు గురు వర్ణాః. తేషాం కీదృశః సంఘాతః భవతి ఇతి నియమాః సంతి. కంచిత్ నియమం ఆశ్రిత్య యత్ర కావ్యం విరచ్యతే తత్రాపి స్పెసిఫిక్ స్ట్రక్చర్ భవతి. పద్యం ఇత్యుక్తే సంస్కృతే సామాన్యతః చత్వారః పాదాః భవంతి. సో పద్యస్య अथवा श्लोकः इत्यपि कथ्यते. सर्वदा चत्वारः पादाः भवन्ति. तत्र सर्वेषु पादेषु समानरीत्या नियमः भवितुम् अर्हति समवृत्तेषु, अथवा विषमवृत्तेषु भिन्नेषु पादेषु भिन्नः नियमः. किन्तु नियमः तु भवति, तादृशनियमयुक्तं पद्यम् इति कथ्यते. तत्र पद्यकाव्ये महाकाव्यं खण्डकाव्यं मुक्तकम् इति प्रभेदत्रयमस्ति. मुक्तकम् इत्युक्ते मुक्ताफलमिव, लैक् अ पर्ल्, अ सिङ्गल् श्लोक, यस्य प्रसङ्गं विना कथां विना सामान्यतः अवगमनं भवति. यथा यत्किमपि सुभाषितं स्वीकुर्वन्तु, तस्य स्वतन्त्रतया तस्य अर्थावगमनं भवति. तादृशं मुक्तकम् इति कथ्यते. चाटुश्लोकाः यथा गतवर्गे दृष्टवन्तः, किं कस्त्वं शूली मृगयभिषजम् इत्यादि, एवं चाटुश्लोकाः सामान्यतः काश्चन स्तुतयः, यथा रामाय रामभद्राय इति कश्चित् श्लोकः उच्यते, सुभाषितम्, एतत् सर्वमपि मुक्तकम् इति कथ्यते. खण्डकाव्यं, लघु काव्यानि भवन्ति, तेषां खण्डकाव्यम् इति नाम. महाकाव्यम् इत्यपि भवति, बृहत् काव्यम् इति सामान्यतः परिज्ञानम्. किन्तु इदानीं महाकाव्यस्य विषये किञ्चित् अध्ययनं कुर्मः. महाकाव्यस्य विशिष्य लक्षणानि सन्ति. किं महाकाव्यम् इत्यत्र, महाकाव्यम् इति पदमेव पश्यामः चेत् द्वेधा समासः भवति. महत् काव्यं महाकाव्यम् इति भवति. वस्तुतः व्याकरणरीत्या स एव विग्रहः, महत् काव्यम्. जस्ट् अ मोमेंट्. महत् काव्यं महाकाव्यं, काव्यमेव महत् भवति. कथं काव्यस्य महत्त्वम् इति अग्रे पश्यामः चेत् ज्ञायते, किं किं भवति महत् काव्यस्य महत्त्वं साधयितुम् इति. अपरमपि सामान्यतः वदन्ति, महतां काव्यं महाकाव्यं, महतां विषये यत् काव्यमस्ति, अथवा यत्र महान्तः विषयाः विचाराः तेषां प्रतिपादनं भवति, तत् सर्वमपि महाकाव्यम्. अतः काव्ये महत्त्वम्, इट् इस् नाट् जस्ट् द सैज़्. केवलं काव्यं बृहद् भवति इत्यनेन काव्यं महाकाव्यं न भवति, तत्रत्याः तत्रत्यानि पात्राणि अपि महान्ति भवन्ति. अनन्तरं तत्रत्य विषयाः, काव्येन यद् बोध्यते तदपि महद् भवति. अस्माभिः प्रथमवर्गे एव ज्ञातं, वेदशास्त्रेषु पुराणादिषु ये पुरुषार्थाः पुरुषार्थसाधकाः उपायाः उच्यन्ते, रामादिवद्वर्तितव्यं न रावणादिवत् इत्यादि व्यवहारस्य आदर्शः यः वेदेषु एवं पुराणेषु उपस्थाप्यते, तदेव सत्काव्येषु अपि उपस्थाप्यते, तदेव काव्यस्यापि लक्ष्यं भवति पुरुषार्थसाधनम्. रीतिः तु भिन्ना, कान्तासंहिता इति काव्यानां रीतिः कथ्यते इति. अतः महतां विषयाणां बोधनमपि यैः भवति तदेव महाकाव्यम् इति कथ्यते. तत्र महाकाव्यस्य लक्षणं साहित्यदर्पणम् इति कश्चित् अलङ्कारशास्त्रस्य ग्रन्थः अस्ति. तत्र एवं रीत्या महाकाव्यस्य लक्षणानि उच्यन्ते. तज्जानीमः चेत् महाकाव्यस्य किं स्वरूपं भवति इति किञ्चित् ज्ञातुं शक्यते. एतत्तु साक्षात् कोविदपाठ्यक्रमे नास्ति, तथापि एतत् तस्य ज्ञानार्थम् उच्यते. सर्गबन्धो महाकाव्यं तत्रैको नायकस्सुरः, सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः, एकवंशभवा भूपाः कुलजाः बहवोऽपि वा. महाकाव्यं, सर्गबन्धः महाकाव्यं, बहुषु सर्गेषु विभक्तं काव्यं महाकाव्यं. काव्यस्य स्वरूपं किं भवति? सर्गबन्धः, यत्र बहुषु सर्गेषु कथायाः अनुबन्धः भवति तत् महाकाव्यम् इति एकः अंशः. द्वितीयः अंशः नायकः, महाकाव्यस्य नायकः कः भवति? एकः सुरः. यदि एकः एव नायकः तर्हि सः सुरः. सुरः देवः. कश्चित् देवः नायकः भवितुम् अर्हति. यथा कुमारसम्भवम् इति काव्यमस्ति, तत्र परमेश्वरः स एव नायकः. एवं सुरः नायकः. अथवा सद्वंशः क्षत्रियः, उत्तमकुलोत्पन्नः क्षत्रियः कश्चित् नायकः भवितुम् अर्हति. यथा नैषधीयचरिते नलः नायकः, उत्तमवंशे जातः क्षत्रियः, स च कीदृशः? धीरोदात्तगुणान्वितः. नायकाः बहुविधाः सन्ति संस्कृतसाहित्ये. तत्र बहु उत्तमविधः नायकः धीरोदात्तः. धीरः उदात्तः. उदात्तगुणाः ये भवन्ति, सत्यं, धर्मः, ज्ञानं, शास्त्रनिष्ठा, एवं धैर्यं, पराक्रमः इत्यादि सर्वसद्गुणान्वितः कश्चित् क्षत्रियः. अथवा एकवंशभवाः भूपाः, कुलजाः बहवोऽपि वा, एकस्मिन्नेव वंशे जाताः, सत्कुलप्रसूताः, बहवः नृपाः. एवम् आप्शन् त्रयम् अस्ति नायकस्य महाकाव्ये. एकः चेत् सः देवः भवितुमर्हति, अथवा उत्तमवंशे जातः कश्चित् क्षत्रियः, अथवा एकस्मिन्नेव वंशे जाताः बहवः राजानः. यथा रघुवंशम् इत्यत्र नाम्ना एव ज्ञायते, रघुवंशस्य राजानः. तत्र दिलीपः, रघुः, अजः, दशरथः, श्रीरामः इत्येवम् एकस्मिन् वंशे जाताः बहवः नृपाः नायकाः भवितुम् अर्हन्ति. काव्यस्य स्वरूपमुक्तं, नायकः कीदृशः इति उक्तम्. रसः कः भवति? शृङ्गार वीर शान्तानां, शान्तानाम् इति देयर इज अ टाइपो. एकः अङ्गी रसः इष्यते. अङ्गी इत्युक्ते प्रधानः रसः, काव्यस्य प्रधानः रसः कः? शृङ्गार वीर शान्तानाम् एकः. प्रधानः रसः महाकाव्यस्य शृङ्गाररसः, वीररसः अथवा शान्तरसः भवति. किन्तु अङ्गानि सर्वेपि रसाः, तत्तु प्रधानः रसः. किन्तु सर्वेपि रसाः तत्र तत्र गौणरूपेण, अङ्गरूपेण सर्वेपि रसाः भवन्ति. प्राधान्येन शृङ्गारः, वीरः अथवा शान्तरसः भवति. सर्वे नाटकसन्धयः. वयम् अनन्तरं पश्यामः नाटकस्य किं स्वरूपम् इत्यादि, तदपि अस्ति अग्रे. नाटके सन्धयः इति भवन्ति. वृत्तस्य डेवलप्मेण्ट्, सो स्टेजेस् आफ् डेवलप्मेण्ट् आफ् अ प्लाट्. तत्र आदौ बीज वापः इव, सो देर् इस् अ सीड्, तस्य वर्धनं भवति. मध्ये फलावाप्तौ केचन विघ्नाः भवन्ति, विघ्नानां निवारणं भवति. अन्ते फलस्य सिद्धिः भवति. इत्येवं भिन्नाः सन्धयः सन्ति. ते सर्वे अपि महाकाव्ये अपि भवन्ति. वृत्तं, सो द डेवलप्मेण्ट् आफ् प्लाट् शुड् बि रेग्युलर्. वृत्तं, वाट् शुड् बि द स्टोरि महाकाव्ये? वृत्तं प्रधानकथा कीदृशी भवति इति चेत्, इतिहासोद्भवं वृत्तम् अन्यद्वा सज्जनाश्रयम्. सामान्यतः इतिहासः, रामायणं महाभारतं च अस्माकं प्राधान्येन इतिहासद्वयम् इत्युच्यते. इतिहासप्रसिद्धा कथा सामान्यतः महाकाव्यस्य वस्तु भवति. अन्यद्वा सज्जनाश्रयम्, अन्यद् भवति चेदपि सज्जनानां विषये एव कथा भवेत्. यतोहि यथा पूर्वमेव उक्तं, धर्मस्य साधनम् अपि काव्यस्य, सत्काव्यस्य लक्षणं भवति. अतः सज्जनाश्रयं काव्यं भवेत् इति महाकाव्यस्य लक्षणं. चत्वारस्तस्य वर्गाः स्युः, तेष्वेकं च फलं भवेत्. वर्गाः, पुरुषार्थाः धर्मार्थ काम मोक्षाः सर्वेषामपि तत्र सन्निवेशः तत्र तत्र भवेत् तेषु एकं च फलं भवेत्। मुख्यं फलं तु पुरुषार्थेषु एकं किमपि भवितुमर्हति, किन्तु सर्वेषामपि पुरुषार्थानां सन्निवेशः तत्र तत्र भवेत्। सो द लक्षण मेक्स् इट् वेरि क्लियर् दट् द काव्य इस् नाट् जस्ट् फार् एण्टर्टैन्मेण्ट्। संस्कृते कदापि काव्यस्य लक्ष्यं केवलं मनोरञ्जनम् इति न। अत एव पुनः पुनः वृत्तं सज्जनाश्रयं भवेत्, तत्र पुरुषार्थसाधनं भवेत्। एकः पुरुषार्थः प्राधान्येन भवति चेदपि सर्वेषां पुरुषार्थानां सन्निवेशः, अतः पुरुषार्थसिद्धिः एव सत्काव्यस्य मुख्यं फलम् इति अस्माकं दृष्टिः। आदौ काव्यस्य प्रारम्भः कथं भवति? एतत्तु केवलं महाकाव्ये इति न, सामान्यतः संस्कृतकाव्ये आदौ कश्चित् मङ्गलश्लोकः भवति। यदि नाटकं भवति तत्र नान्दी इति उच्यते, नान्द्यन्ते मङ्गलश्लोकः भवति। सर्वेषु अपि काव्येषु मङ्गलश्लोकः कश्चित् भवति, सः मङ्गलः त्रिविधः भवति। सो आल् काव्यास् स्टार्ट् वित् एन् इन्वोकेशन् विच् इस् आफ् त्री कैण्ड्स्। नमस्क्रिया, आशीः, वस्तुनिर्देशः। नमस्काररूपं मङ्गलम्, यत्र कविः इष्टदेवस्य नमस्कारं करोति। यथा रघुवंशस्य प्रथमः श्लोकः अस्ति, वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे, अहं नमस्करोमि पार्वतीपरमेश्वरौ नमस्करोमि इति। नमस्क्रिया इति एकविधं मङ्गलम्। आशीः इत्युक्ते ये प्रेक्षकाः अथवा ये श्रोतारः, तेषां सर्वेषामपि मङ्गलं भवतु इति कदाचित् आशीरूपेण मङ्गलं क्रियते। तत्र अभिज्ञानशाकुन्तलस्य मङ्गलश्लोकं पश्यन्ति चेत्, या सृष्टिस्रष्टुराद्या इत्यादि भवति, प्रत्यक्षाभिः प्रपन्नः तनुभिः अवतु वः। वः इत्युक्ते युष्मान्, ताभिरष्टाभिरीशः, ईशः वः अवतु, परमेश्वरः युष्मान् सर्वान् पालयतु इति कविः ये श्रोतारः अथवा प्रेक्षकाः तेषाम् आशीर्वादरूपेण मङ्गलश्लोकं रचयति। नमस्क्रिया, आशीः, वस्तुनिर्देशः। कदाचित् तु मङ्गलश्लोके साक्षात् वस्तुनः, काव्यस्य का कथा, कानि मुख्यपात्राणि इत्यादीनां निर्देशः अपि भवति। भासस्य नाटकानि पश्यन्ति चेत् तत्र उभयं मेलनं भवति, सो हि यूजुवली कम्बैन्स् वित् नमस्क्रिया वित् वस्तुनिर्देश एण्ड् सो आन्। समटैम्स् इट् कुड् प्योर्ली बि वस्तुनिर्देश, सो द इन्वोकेशन् केन् ईदर् बि प्रोस्ट्रेशन् बिफोर् द डीटी आर् इन् द फार्म् आफ् अ बेनेडिक्षन् or direct entry into the plot. Evam adau kavyasya arambhah evam bhavitum arhati. Kvachin ninda khaladinam satam cha gunakirtanam. Punaha etadapi drishtam, sajjananam gunanam kirtanam bhavati, khaladinam ninda iti samanyam bhavati. So there are no samskrita kavyas which celebrate the evil. Okay, so it always, even though yatra sarvatra bhavati sajjanaha durjanaha tesham paraspara virodhaha tattu loke sarvatra bhavati, kintu tatra asmakam adarshaha kaha, ye adarshabhutaha sajjanaha tesham prashamsa, ye duracharavantaha tesham ninda ititu bhavatyeva. एकवृत्तमयैः पद्यैः अवसाने अन्यवृत्तकैः। सो वृत्तं कथं भवति? यदि पद्यकाव्यं भवति तर्हि तत्र वृत्तं भवति। तत्र आदौ एव उक्तं सर्गबन्धः, बहवः सर्गाः भवन्ति। तत्र एकवृत्तमयैः पद्यैः एकस्मिन् सर्गे వృత్తం ఏకమేవ భవతి. సో ప్రతి పద్యం వృత్తస్య పరివర్తనం న క్రియతే. సో యూజువలీ ఇన్ వన్ సర్గ ద సర్గ ఇస్ ఎంటైర్లీ ఇన్ ద ఇన్ వన్ పర్టిక్యులర్ వృత్త అ పర్టిక్యులర్ మీటర్. సో ఏకవృత్తమయై పద్యై అవసానే అన్యవృత్తకై సర్గస్య అంతే అంతిమ శ్లోక అథవా అంతిమ శ్లోకద్వయం తు భిన్నే వృత్తే భవతి. కింతు సామాన్యతః సర్గే ఏకమేవ వృత్తం భవతి. ఇదం తు కేవలం మహాకావ్యమితి నా రామాయణే అపి ఏవమేవ భవతి. ప్రాయః అనుష్టుప్ శ్లోకాః అంతిమ శ్లోక అన్యస్మిన్ ఛందసి కదాచిత్ భవతి అథవా అన్యస్మిన్ వృత్తే శ్లోకాః సంతి చేత్ అంతిమస్య శ్లోకస్య వృత్తం పరివర్త్యతే. సో ద వృత్త ఇట్సెల్ఫ్ ఇండికేట్స్ అ చేంజ్. సో మూవింగ్ ఫ్రమ్ వన్ సర్గ టు ద అదర్ సర్గ. ఏకవృత్తమయై పద్యై అవసానే అంతే అన్యవృత్తకై నాతి స్వల్పాః నాతి దీర్ఘాః సర్గాః. సో సర్గాః ఏకవృత్తమయై పద్యై అన్వితాః భవంతి. సర్గస్య అంతే అన్యద్ వృత్తం భవతి. సర్గః నాతి స్వల్పః నాతి దీర్ఘః. సో అన్ యావరేజ్ లెంగ్త్, నాట్ వెరీ స్మాల్ అండ్ నాట్ వెరీ లాంగ్. అష్టాధికాః సర్గాః అండ్ ద మినిమం నంబర్ ఆఫ్ సర్గాస్ ఇస్ 8. మహాకావ్యం చేత్ అష్ట సర్గాః వా భవేయుః. అష్ట తదపేక్షయా అధికం యత్కిమపి భవితుమర్హతి. సో మినిమం అష్ట సర్గాః భవంతి. ఏకస్మిన్ సర్గే ఏకమేవ వృత్తం భవతి. అంతే అన్యస్య వృత్తస్య ఉపయోగః క్రియతే. సర్గస్య దైర్ఘ్యం బహు దీర్ఘమపి న బహు స్వల్ప అపి న. సో దేర్ ఇస్ నో మెజర్ ఆఫ్ వాట్ ఇస్ లాంగ్ అండ్ వాట్ ఇస్ షార్ట్. ఓకే, సో ఇట్స్ నాట్ డెఫినెట్లీ నాట్ లెస్ దెన్ 50 or 60 శ్లోకస్. తావత్తు భవత్యేవ ఏకస్మిన్ సర్గే. తదపేక్షయా న్యూనం తు మహాకావ్యే సామాన్యతః న భవతి. సో 50 వా 60 వా శ్లోకాః నిశ్చయేన భవంతి. శతం మ్యాక్సిమం అరౌండ్ 120 or 150 యూజువలీ ఇస్ ద లెంగ్త్ ఆఫ్ ద సర్గ. ఓకే, దిస్ డజంట్ స్పెసిఫై హౌ మెనీ శ్లోకస్. సో ఇట్ సేస్ నీదర్ వెరీ షార్ట్ నార్ వెరీ లాంగ్. Usually what I have seen is minimum of 50 and a maximum of around 120 or 150 and a minimum of 8 sargas in the kavya. Nana vrittamayah kvapi sargah kaschana drishyate kadachittu kinkurvante svasya pratibha pradarshanartham bahuni vrittani bhavanti. So they there can be a sarga which has multiple chandas, but that is only as a, you know, a demo or an exhibit. Samanyatah ekameva vrittam bhavati sarge. Sargante bhavi sargasya kathayaah suchanam bhavet. Kevalam vrittasya parivartanam evana sargasya ante agrima sargasya kaha vishayah ka katha iti kinchidiva suchanam bhavati. So all these highlighted words are what it is talking about. So vrittam kim bhavati, avrittam iti adau yada itihasodbhavam vrittam iti uchyate tatra charitram katha ityarthah katha kidrishi iti vargaah purushartah bhavanti arambhah na mangala shlokena kriyate gunakirtanam khaladinam ninda bhavati vrittam chandah ekameva bhavati సర్గాః అష్టాధికాః భవంతి సర్గస్య అంతే అగ్రిమ సర్గస్య సూచన భవతి. అనంతరం వర్ణనం. సో ఇట్ గివ్స్ అ లాంగ్ లిస్ట్ ఆఫ్ థింగ్స్ దట్ ఆర్ టు బి డిస్క్రైబ్డ్ ఇన్ అ మహాకావ్య. ఓకే, వర్ణనీయాః కస్య కస్య వర్ణనం భవేద్ ఇత్యేవ ఏక పట్టికా అస్తి. సంధ్యాకాలస్య సూర్యస్య ఇందుః చంద్రస్య రాత్రేః ఇత్యేవం బహువిధ వర్ణనం యథాయోగం యత్ర యత్ర ప్రసంగః భవతి తత్ర ఏతాదృశానాం వర్ణనం భవతి. సో మహాకావ్య ఇస్ నాట్ జస్ట్ అ స్టోరీ, ఇట్ ఆల్సో ఇన్వాల్వ్స్ అ లాట్ ఆఫ్ డిస్క్రిప్షన్స్ ఆఫ్ వేరియస్ థింగ్స్. ఓకే, कवेः वृत्तस्य वा नाम्ना नायकस्य अन्यतरस्य वा नाम. What is the name of the Mahakavya? कवेः नाम. So you can either call it by the name of the Kavi himself. भट्टिकाव्यम् इत्युच्यते. माघकाव्यम् यद्यपि अन्यत् नाम अस्ति, माघकाव्यम् इति कथ्यते. वृत्तस्य अथवा कथाम् आश्रित्य नाम क्रियते, यथा कुमारसम्भवम्, कुमारस्य कार्तिकेयस्य उत्पत्तिः इति. नायकस्य अन्यतरस्य और् वन् आफ् द हीरोस्, तेषां नाम्ना अपि काव्यस्य नाम भवितुम् अर्हति. नैषधीयचरितं, तत्र नैषधीयः, नैषधः इत्युक्ते नलः, तस्य नाम्ना अस्ति. किरातार्जुनीयं, तत्र किरातः अर्जुनः, अर्जुनः प्रधाननायकः, किरातरूपेण किरातेन सह अर्जुनस्य युद्धम् इति वृत्तमपि तेन कथ्यते. एवं कवेः नाम्ना, कथायाः नाम्ना, नायकस्य वा नाम्ना महाकाव्यस्य नाम भवति. सर्गोपादेयकथया सर्गनाम, सर्गस्यापि पृथक् पृथक् नाम भवति. कथामाश्रित्य, कथाधारेण प्रत्येकं सर्गस्यापि नाम भवितुम् अर्हति. ओके, इत्येवं महाकाव्यस्य मुख्यानि लक्षणानि. द पर्पस् आफ् गोयिङ्ग् इन् टु दीस् वास् वन् आफ् कोर्स् टु अण्डर्स्टाण्ड् द जनरल् स्ट्रक्चर् आफ् अ महाकाव्य, अण्ड् आल्सो टु इन्ट्रोड्यूस् यू इन् टु द साहित्यशास्त्र. सो केवलं काव्यानां रचनम् इति न, काव्यस्वरूपं किं भवति, भिन्नभिन्नकाव्यानां लक्षणं किं भवति इत्यादि अपि अस्माकं शास्त्रेषु वर्णितमस्ति. एवमेव नाटकस्य लक्षणं भवति, प्रकरणस्य लक्षणं भवति, सर्वेषामपि लक्षणं वर्णितमस्ति, तस्य ज्ञानार्थम् उक्तम्. अत्र केचन प्रश्नाः सन्ति चेत् पृच्छन्तु. तत्र कश्चित् प्रश्नः अस्ति, डिड् नाट् अण्डर्स्टाण्ड् द रस कान्सेप्ट् इन् द महाकाव्यम्. महाकाव्यस्य प्रधानरसः, केवलं महाकाव्यस्य इति न, सामान्यतः रस इस् द मेन् थिङ्ग् आफ् अ काव्य. काव्यं वाक्यं रसात्मकं काव्यम् इत्येव काव्यस्य लक्षणमस्ति. यत्र रस उत्पत्तिः भवति, रसो वै आत्मा, काव्यस्यात्मा रसः इत्येव अङ्गीक्रियते. प्रधानः रसः कः? रसः नवविधः भवति. शृङ्गार, हास्य, करुण, रौद्र, वीर, भयानकाः, बीभत्स, अद्भुत, शान्ताः नवरसाः, नवरसाः सन्ति. काव्येषु प्रसङ्गम् आश्रित्य भिन्नाः रसाः भवन्ति, किन्तु प्राधान्येन कश्चित् रसः सर्वं काव्यम् अभिव्याप्य तिष्ठति. अतः अङ्गी इत्युक्ते प्रधानः, अङ्गम् इत्युक्ते तस्य अङ्गभूतः. यदि लघुकाव्यमस्ति तत्र प्रायः एक एव रसः भवति. महाकाव्ये सर्वे रसाः भवन्ति, किन्तु प्राधान्येन शृङ्गारः, वीरः अथवा शान्तः, एते रसाः एव प्रधानरसत्वेन अङ्गीक्रियते. अर्थात् केवलं हास्यरसमाश्रित्य किमपि काव्यं संस्कृते न भवति, केवलं महाकाव्यं. कदाचित्तु लघुरूपकेषु हास्यरसस्य प्राधान्यं स्यात्, किन्तु महत्काव्यं यत्र भवति तत्र एते त्रयः रसाः प्राधान्येन भवन्ति. वीररसः, तत्तु ज्ञायते, रघुवंशे प्रधानः रसः वीररसः, कुमारसम्भवे शृङ्गारः अस्ति, वीररसः अपि अस्ति, इत्येवं प्रधानरसः. शान्तरसस्य एकम् उदाहरणं केनचित् पृष्टम्, दो नाट् टेक्निकलि महाकाव्य, द महाभारत इस् सेड् टु बि ए शान्तप्रधानरस. ओके, there is also I think one of the texts, I am not sure which text, could be Dhvanyaloka. So kutrachit Mahabharate finally, yadyapi bahu bibhatsaha bhayanakaha sarve rasaha santi, ante samagrasya kavyasya patanena ante sthayi rupena tishtati shantarasaha iti kathyate. Ataha tasyapi pradhanyam. अस्ति केषुचित् नाटकेषु जीमूतवाहनस्य केषुचित् नाटकेषु शान्तरसस्य प्राधान्यं भवति. ओके महाकाव्यम् इत्यनेन पद्यकाव्यानामेव महाकाव्यम् इति भवति वा? यस् वेन् वि आर् टाकिङ्ग् अबौट् दिस् महाकाव्य अत्र महत् काव्यं जनरली अ ग्रेट् काव्य केन् बि एनी कैण्ड् आफ् अ काव्य गद्य पद्य एक्सेट्रा किन्तु महाकाव्यम् इति पारिभाषिकं पदं यदुपयुज्यते तत्तु पद्यकाव्यानामेव भवति. यथा महाभाष्यम् इति व्याकरणभाष्यस्यैव महाभाष्यम् अन्यान्यपि भाष्याणि महान्ति किन्तु महाभाष्यम् इति नामधेयं तु व्याकरणभाष्यस्यैव एवं महाकाव्यम् इति पद्यकाव्ये एव रूढमस्ति. केनचित् पृष्टम् अत्र नायकस्य विषये यथा प्रह्लादम् आश्रित्य कश्चित् किञ्चित् काव्यं लिख्यते चेत् महाकाव्यं भवति वा इति. सः सुरः नास्ति अन्यदपि नास्ति इत्यतः भवत्येव. सि अगेन् दिस् इस् आल् इण्डिकेटर् सो धीरोदात्तगुणान्वितः कश्चित् भवेत् अतः भवितुम् अर्हति बट् अगेन् टु सि यथा उक्तं काव्यस्य प्रधानं लक्ष्यं पुरुषार्थसिद्धिः एवं तत्र सद्गुणानां वर्णनं दुर्गुणानाम् एतत् इति अतः प्रायेण भवितुम् अर्हति किन्तु प्रह्लादमाश्रित्य महाकाव्यम् अस्ति वा इति न ज्ञायते. वृत्तशब्दस्य भिन्नाः अर्थाः सन्ति. केन् यु एक्स्प्लेन् द मेन् मीनिङ्ग्स्? अस्मिन् प्रसङ्गे अर्थद्वयं तु मया उक्तं. वृत्तम् आचरितं चरितम् इत्यर्थः एकः अस्ति तदा तु कथा इत्यर्थः भवति. अन्यत्र वृत्तम् इत्यनेन छन्दः इत्यर्थः भवति. सो इन् द काण्टेक्स्ट् आफ् काव्यस् इट् इस् दीस् टु मीनिङ्ग्स् विच् आर् अप्लिकेबल्. अग्रिमस्य प्रश्नस्य उत्तरम् अग्रे दास्यामि. पञ्च एव महाकाव्यानि वा इति? न, महाकाव्यानि पञ्च एव न, तथापि पञ्च महाकाव्यानि अत्यन्तं प्रसिद्धानि सन्ति. सो वेन् वि टाक् आफ् महाकाव्यस् देर् आर् फैव् विच् आर् वेरि फेमस्. इट् इस् नाट् दट् देर् आर् ओन्ली फैव् महाकाव्यास्. एतद् अतिरिच्यापि अन्यानि बहूनि महाकाव्यानि सन्ति. सो दे आल् कन्फर्म् टु द स्ट्रक्चर् गिवन् बिफोर् बट् पञ्चानां काव्यानाम् अत्यन्तं प्रसिद्धिः अस्ति. तानि सन्ति रघुवंशं, कुमारसम्भवं, किरातार्जुनीयं, शिशुपालवधं, नैषधीयचरितम् इति. एतानि पञ्चकाव्यानि पञ्चमहाकाव्यानि अत्यन्तं प्रसिद्धानि. तत्र कालिदासस्य रघुवंशं, कुमारसम्भवम् इति काव्यद्वयम्. रघुवंशे दिलीपादारभ्य श्रीरामस्य पूर्वजानां कथा, श्रीरामस्य कथा, अग्रे तद्वंशीयानाम् अन्येषां कथा वर्ण्यते. कुमारसम्भवम् इत्यत्र कार्तिकेयस्य जन्म आश्रित्य ततः पूर्वं पार्वतीपरमेश्वरयोः विवाहादिकं वर्ण्यते. किरातार्जुनीयं भारवेः काव्यं, शिक्षावर्गे अस्य काव्यस्य कथा पठिता. अर्जुनः पाशुपतास्त्रं प्राप्नोति शिवम् आराध्य. तत्र किरातरूपेण शिवेन सह अर्जुनस्य युद्धं तत्र प्रधानः प्रसङ्गः भवति. माघकविरचितं शिशुपालवधं यत्र श्रीकृष्णेन शिशुपालस्य वधः क्रियते, महाभारत आश्रिता कथा. श्रीहर्षः नैषधीयचरितस्य कर्ता, तत्र नलदमयन्त्योः कथा वर्ण्यते. एतानि पञ्च प्रसिद्धानि महाकाव्यानि, अन्यानि अपि बहूनि सन्ति, इदानीमपि विरच्यमानानि सन्ति. इट् इस् नाट् दट् संस्कृत लिटरेचर् इस् नाट् ग्रोयिङ्ग् टुडे. अद्यापि बहुभिः कविभिः काव्यानि, खण्डकाव्यानि, महाकाव्यानि अपि रचितानि, रच्यमानानि च सन्ति. तत्र रघुवंशमहाकाव्यस्य विषये किञ्चित् जानीमः, यतोहि अस्माभिः तदेव अधीयते. रघुवंशे महाकाव्यस्य यानि लक्षणानि अधीतानि तानि सर्वाणि सन्ति वा, कथं तेषाम् अन्वयः इति पश्यामः. रघुवंशे ऊनविंशतिः सर्गाः सन्ति नवदश सर्गाः उपलब्धाः इति उच्यते यतोहि अधुना यथा उपलभ्यते तथा रघुवंशस्य लॉजिकल एंडिंग नास्ति हठात् तस्य अंतिम सर्गे कथा न समाप्यते ओके सो इट इज नॉट अ क्लियर एंड तत्र कारणं किं स्यादिति ऊहः एव क्रियते कैश्चिरुच्यते अग्रे केचन सर्गाः विरचिताः ते नष्टाः इति केचन वदन्ति केचन तु एतावन्तः एव सर्गाः इति वदन्ति कैश्चित्तु रघुवंशं कालिदासस्य अन्तिमं काव्यं तस्य पूर्णात् प्रागेव सः दिवङ्गतः इत्यपि वदन्ति सर्वोऽपि ऊहः एव अधुना ऊनविंशतिः सर्गाः उपलभ्यन्ते तत्र नायकाः रघुकुलोत्पन्नाः धीरोदात्ताः राजानः बहवः राजानः एकवंशभवाभूपाः इत्युक्तम् एकस्मिन् वंशे सम्भूताः राजानः दिलीपः रघुः अजः दशरथः श्रीरामः एते प्राधान्येन अन्येषामपि महाराज्ञां वर्णनम् अस्ति अतः नायकाः रघुकुलोत्पन्नाः राजानः प्रधानरसः वीररसः सर्वे रसाः सन्ति किन्तु प्राधान्येन वीररसः अस्ति वृत्तं वृत्तम् इत्युक्ते कथा इतिहासोद्भवं वृत्तं रामायणे अस्ति रामस्य कथा प्राधान्येन अस्ति अन्येषु बहुषु पुराणेषु कथा अस्ति सो कालिदासस् जीनियालजि आफ् रघुवंश डस् नाट् फुल्ली अग्री वित् द रामायण रामायणे यथा रामस्य पूर्वजानाम् आवलिः दीयते सा आवलिः रघुवंशे नास्ति अतः रामायणम् आश्रित्य तथैव अन्यानि पुराणानि अपि आश्रित्य कालिदासेन कथा स्वीकृता इति कथ्यते आदौ रघुवंशस्य आदौ नमस्कारात्मकं मङ्गलमस्ति वयमग्रे रघुवंशस्य मङ्गलश्लोकं पठामः अतः नमस्काररूपं मङ्गलमस्ति रघुवंशे वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ इति पार्वतीपरमेश्वरयोः नमस्कारः क्रियते वृत्तं छन्दसः विषये पश्यामः चेत् प्रथमसर्गे सर्वे श्लोकाः अनुष्टुप् वृत्ते सन्ति अन्तिमश्लोके प्रहर्षिणी इति वृत्तमस्ति एवं द्वितीयसर्गे सर्वत्र उपजातिः अन्तिमश्लोके मालिनी एवम् एकवृत्तमयैः पद्यैः अवसाने अन्यवृत्तकैः इति नियमः अत्र द्रष्टुं शक्यते प्रत्येकं सर्गस्य अन्ते अग्रिमसर्गस्य कथासूचनम् अस्ति अग्रे किं भवति इति किञ्चिदिव क्लू दीयते कविना वर्णनानि यथेच्छं सन्ति सर्वत्र यद्यदुच्यते तत्र आवलिः सर्वमपि अस्ति काव्यस्य नाम रघुवंशम् नायकानाम् आधारेण रघुवंशे जाताः एव नायकाः अतः नायकान् आश्रित्य काव्यस्य नाम कृतमस्ति सर्गाणां नामानि मध्ये मध्ये सन्ति नन्दिनीवरप्रदानम् इति द्वितीयः अस्माभिः अग्रे अध्येष्यमाणः सर्गः तस्य नाम नन्दिनीवरप्रदानम् रघुदिग्विजयः इति सर्गः अस्ति इन्दुमतीस्वयंवरः तत्र तत्र कथामाश्रित्य सर्गस्य नामानि सन्ति इत्येवं पूर्वम् उक्तानि सर्वाण्यपि लक्षणानि रघुवंशे अपि अन्तर्भवन्ति ओके तत्र नवदश 19th सर्गस्य अन्ते अपि क्लू अस्ति वा इति आम् इट्स् एन् अब्रप्ट् एण्डिङ्ग् इट् डजन्ट् लुक् लैक् द स्टोरी हेज़् एण्डेड् देर् अग्रे किमपि वक्तुम् इच्छति इव अस्ति किन्तु अग्रे किमपि नोपलभ्यते इत्येव अत्र कश्चित् प्रश्नः अस्ति वाल्मीकिरामायणं किं भवति तदपि महाकाव्यं वा इति इन् संस्कृते यदा काव्यानाम् अध्ययनं क्रियते तत्र यद्यपि रामायणं महाभारतं च काव्यरूपेण एव अस्ति पद्यकाव्यम् इति तथापि यदा एतानि लक्षणानि दीयन्ते तत्र tad lakshanam sarvam api bhaved iti nasti. So the normal lakshanas which we give, yatha mahakavyam iti lakshanam diyate, tattu asthana kavyanam eva iti uchyate. So the Ramayana and Mahabharata are considered as itihasas, okay, rather than kavya. यद्यपि तेषां स्वरूपं काव्यरूपेण अस्ति तथापि इतिहासत्वेनैव परिगणनम् वाल्मीकीये आदिकाव्ये इत्येव तत्र व्यवहारः अस्ति. सो वी शुड नॉट ट्राई टू फिट ऑल दीज लक्षणास इनटू द रामायण और महाभारत. ओके, दे आर इन अ सेपरेट क्लास बाय देमसेल्व्स, बट मेनी ऑफ दीज लक्षणास आर सीन, दृश्यन्ते बहूनि लक्षणानि. रघुवंशस्य कर्ता कालिदासः, कालिदासः कविकुलगुरुः इत्येव ख्यातः. कविकुलस्य गुरुः अत्यन्तं श्रेष्ठः कविः, संस्कृतकविषु प्रायः अत्यन्तं प्रसिद्धः वरिष्ठः कविः कालिदासः. तत्र एकः श्लोकः अस्ति, पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा अद्यापि तत्तुल्य कवेरभावाद अनामिका सार्थवती बभूव. किमुच्यते, पूर्वकाले कवीनां गणना प्रसंगे के कवयः इति गणनां कर्तुं कश्चित् आरब्धवान्, तत्र कनिष्ठिका अधिष्ठित कालिदासा. कनिष्ठिका इज द लिटिल सिंगर, ओके, सो इट इज कॉल्ड कनिष्ठिका. सो व्हेन यू आर स्टार्टिंग टू काउंट द फर्स्ट फिंगर, से स्टार्टिंग फ्रॉम द लिटिल फिंगर, so kanishthika adhishthita kalidasa, so kalidasa is the first one to be counted in a list of kavis. So when somebody was trying to count who are all the kavis, so the first name was kalidasa, so he was allotted the kanishthika. The next finger, that is the ring finger, is called anamika. Okay, so this is a just a chatu shloka. Adyapi तत्तुल्य कवेर अभावात्, सो वेन दैट पर्सन वॉन्टेड टू काउंट अनदर नेम, देर वॉज नो बडी हु वॉज इवन एनीवेर नियर टू कालिदास. सो वेन यू आर काउंटिंग एज इन फर्स्ट, द सेकेंड वन शुड बी समवेर क्लोज टू द फर्स्ट. ओके, सो दट इज द अंडरस्टैंडिंग. सो तत्तुल्य कवे अभावात्, इवन टूडे सिंस देर इज नो पोएट हु इज इक्वल टू कालिदास, Anamika Sarthavati Vabhuva. The name Anamika holds good. Anamika ityasya na nama yasyaha. Yasyaha namadheyam nasti sa anamika. So if you derive the word grammatically, it says nameless finger is anamika. Why is she nameless? Because there is no name which can be assigned even as second to Kalidasa. So that is like the what we call the ajagajantara, the difference between Kalidasa and other poets. Kaschit shlokah yena kalidasasya vaishishtyam nyayate. Okay, so kalidasena sapta kritayah virachitah iti gnyayate. Vastutah kalidasasya vishaye kimapi asmabhih na gnyayate. Saha kada asit, kutra asit ityadi sarvam api ऊहात्मकमेव, यतोहि कालिदासः स्वस्य विषये किमपि न कथयति ग्रन्थेषु, सर्वमपि ऊहारूपेण एव भवति. एवमेव कालिदासस्य नाम्ना शतशः ग्रन्थाः उपलभ्यन्ते. सो देर आर् हण्ड्रेड्स् आफ् टेक्स्ट् विच् आर् अट्रिब्यूटेड् टु कालिदास, किन्तु वस्तुतः यः महाकविः कालिदासः, तेन रचिताः कृतयः सप्त इति सर्वैः अङ्गीक्रियन्ते. So these seven are commonly accepted to be by the Mahakavi Kalidasa. Anyani anyesham kavyanam kartrutvam na jnayate. Tatra kritishu mahakavya dvayam asti, raghuvamsham kumarasambhavam iti. Khandakavya dvayam vidyate, ritusamharaha meghadutam iti. Evameva natakatrayam asti, मालविकाग्निमित्रं विक्रमोर्वशीयम् अभिज्ञानशाकुन्तलम् इति. एवं महाकाव्यद्वयं खण्डकाव्यद्वयं नाटकत्रयं च कालिदासेन रचितम् इति सामान्यतः ज्ञायते. इत्येतावती पीठिका भवति. समयः क्षम्यतां, समयः न ज्ञातः, अधुना एव अग्रे गताः, अतः अत्र अद्यतनपाठं स्थगयामः. अग्रिम सप्ताहे रघुवंशस्य अध्ययनस्य आरम्भं कुर्मः पूर्वोक्तक्रमेण. सो वी हेड् सीन् अ स्पेसिफिक् क्रम, यथा परच्छेदः, सन्धिः, श्लोकस्य सामान्यार्थः, वाक्यविश्लेषणम्, अन्वयरचना आकाङ्क्षाक्रमेण, व्याकरणांशाः, अलङ्कारः, छन्दः, पुनश्च व्याख्यानम् इत्येतत् सर्वमपि, ये श्लोकाः निर्दिष्टाः सन्ति तेषां कृते अनेन क्रमेण अध्ययनं कर्तुं प्रयत्नं कुर्मः अग्रिमसप्ताहादारभ्य. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. धन्यवादाः.